निषिद्धैरप्येभिः ललितमकरन्दो मधुकरैः करैरिन्धोरन्तश्चुरितैव सम्भिन्नमुकुलः विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम्। दुर्योधनः कर्णः च प्रविशतः इति दृष्टवन्तः। एतयोः संवादः, दुर्योधनकर्णयोः संवादः। दुर्योधनः अङ्गराज तेजस्वी रिपुहतबन्धुदुःखपारं बाहुभ्यां व्रजति धृत आयुधप्लवाभ्याम्। आचार्यः सुतनिधनं निशम्य सङ्ख्ये किं शस्त्रग्रहणसमये विशस्त्रः आसीत्। दुर्योधनकर्णयोः अयं संवादः बहु मुख्यः अस्ति, कारणम् अनेन संवादेन दुर्योधनस्य क्यारेक्टर् स्वभावः ज्ञायते। दुर्योधनः कीदृशः अस्ति, कीदृशः दुर्योधनः अस्ति, सः कर्णे कियत् विश्वासः अस्ति, तस्य दुर्योधनस्य महान् विश्वासः अस्ति कर्णे। अतः यत् कर्णः वदति तत्सर्वम् अङ्गीकुर्वन्निव भवति दुर्योधनः। एतयोः संवादः बहु मुख्यः अस्ति। अनेन श्लोकेन दुर्योधनः किं पृच्छति इत्युक्ते, यः कोऽपि युद्धे योधः, कश्चित् योधः यः पराक्रमशाली अस्ति, सः कदाचिदपि अस्त्रं त्यक्तुं, शस्त्रं त्यक्तुं न पारयति। यस्य कस्यचिदपि बन्धोः मरणवार्ता श्रूयते चेदपि सः शस्त्रं ग्रहीतुमेव उद्युक्तः भवति। कदापि कश्चित् योधा शस्त्रं त्यक्तुं न प्रभवति इति दुर्योधनस्य अवमेवं। द्रोणाचार्यः किमर्थं शस्त्रं त्यक्तवान् इति दुर्योधनस्य प्रश्नः। पराक्रमशालिनः स्वबन्धोः मरणवार्तां श्रुत्वा तद्दुःखसागरं कथञ्चित् तर्तुं प्रयत्नं कुर्वन्ति, कदापि तद् शस्त्रं त्यक्तुं न प्रभवन्ति इति। तदेव श्लोकस्य सामान्य अर्थः। इदानीं पश्यामः श्लोकस्य प्रतिपदम् अर्थं पश्यामः। तेजस्वी, तेजस्वी नाम यस्य तेजः अस्ति सः तेजस्वी, पराक्रमशाली। रिपुहतबन्धुदुःखपारं, रिपुना शत्रुणा हतः बन्धुः, मारितः बन्धुः, अत एव तस्य दुःखं भवति। तद्दुःखपारं व्रजति सः तेजस्वी, रिपुहतबन्धुदुःखपारं व्रजति, रिपुणा हतः बन्धुः, तस्य दुःखं, तेन दुःखं, तदेव सागरमस्ति, दुःखमेव सागरः। सागरस्य पारं व्रजति, व्रजति नाम प्राप्नोति सः। केनचित् शत्रुणा स्वबन्धुः मारितः इति श्रुत्वा सः कथञ्चित् तस्य दुःखस्य, दुःखसागरस्य पारं प्राप्नोति सः। कथं प्राप्नोति इत्युक्ते बाहुभ्यां प्राप्नोति, तेजस्वी स्वबाहुभ्यां प्राप्नोति। कीदृशाभ्यां बाहुभ्याम् इत्युक्ते धृत आयुध प्लवाभ्यां बाहुभ्यां। धृत आयुध नाम गृहीत आयुध, रिक्तपाणिना, रिक्तपाणिभ्यां न, धृत आयुध पाणिपि, तद्धृतम् आयुधम् एव प्लवः भवति। प्लवः नाम उडुपः, तर्तुं प्रयुज्यमानं साधनं। नौकया यदा तर्तुं नदीं वा सागरं वा तर्तुं प्रयतते, तत्र तरणकार्यार्थं हस्ताभ्यां प्रयुज्यमानं साधनमेव उडुपः अथवा प्लवः इति उच्यते। अतः अत्र आयुधमेव गृहीतम्, आयुधं शस्त्रमेव उडुपः, प्लवः भवति। तादृशाभ्यां बाहुभ्यां सः कथञ्चित् तेजस्वी, रिपुहतबन्धु दुःखस्य, दुःखसागरस्य पारं गच्छति एव इति सामान्यं वाक्यं। नाम यः कोऽपि स्वजनस्य, स्वबन्धुजनस्य मरणवार्तां शृणोति चेत् कश्चित् पराक्रमशाली योधः शस्त्रं गृहीत्वा तं रिपुं मारयित्वा तृप्तिं प्राप्नोति। स्वबन्धुजनस्य मारणं कृतवान् सः, अहं तं मारितवान् इति तस्य तृप्तिः भवति, शोकसागरमपि सः उत्तरति अनेन, अनया प्रतिक्रियया सः स्वशोकसागरमपि तर्तुं शक्नोति, पुनः तं रिपुं मारयित्वा कथञ्चित् शोकसागरं तरति कश्चित् तेजस्वी। तेजस्वी धृत आयुधप्लवाभ्यां बाहुभ्यां आयुधं प्लवरूप उडुपरूप आयुधं आयुधं यस्मिन् हस्ते अस्ति, यस्मिन् बाहौ अस्ति, तादृशाभ्यां बाहुभ्यां रिपुहतबन्धुदुःखपारं व्रजति। रिपुना यत् दुःखं कारितम् अस्ति तस्य दुःखस्य पारं सः प्राप्नोति। किन्तु आचार्यः द्रोणः सुतनिधनं निशम्य सुतपुत्रस्य निधनं नाम मरणं निशम्य श्रुत्वा आकर्ण्य सङ्ख्ये कुत्र युद्धे शस्त्रग्रहणसमये शस्त्रस्वीकरणसमये सुतस्य मरणवार्तां श्रुत्वा तेन शस्त्रग्रहणं करणीयं स्यात्। किल कारणं दृष्टद्युम्नं मारयितुं, यः शत्रुः मम पुत्रस्य निधनं कारितवान् तं मारयामि इति शस्त्रं ग्रहीतव्यम् आसीत्। किन्तु सः विशस्त्रः किम् आसीत्, किम् इति अत्र किमर्थम् इति स्वीकरणीयम्। विशस्त्रः नाम शस्त्रहीनः, शस्त्रं किमर्थं त्यक्तवान्? सः युद्धे सङ्ख्ये सुतनिधनं निशम्य पुत्रस्य मरणवार्तां श्रुत्वा ग्रहसमये शस्त्रस्वीकरणसन्दर्भे विशस्त्रः कथम् आसीत्, किमर्थं सः विशस्त्रः शस्त्रविहीनः आसीत् इति अत्र आयुधमेव प्लवः इति अत्र रूपक अलङ्कारः। व्याख्यां पठामः। तेजस्वी ओजस्वी धृत आयुधप्लवाभ्यां धृतौ गृहीतौ आयुधानि एव प्लवौ अस्त्र उडुपौ याभ्यां तौ ताभ्यां बाहुभ्यां भुजाभ्यां रिपुहत बन्धुदुःखपारं। रिपुना हतो हतः यः बन्धुः तस्य यत् दुःखं तस्य पारं शत्रुमारितबन्धुशोकतटं व्रजति गच्छति आचार्यः गुरुद्रोणः। सङ्ख्ये युद्धे सुतनिधनं पुत्रमरणं निशम्य श्रुत्वा शस्त्रग्रहणसमये शस्त्रस्य आयुधस्य ग्रहणसमये ग्रहणकाले विशस्त्रः विगतं शस्त्रं येन सह त्यक्त आयुधः किमर्थम् आसीत् अभवत्। अत्र रूपक अलङ्कारः। अथवा सूक्तमिदम् अभियुक्तैः प्रकृतिः द्युस्त्यजेति, यतः शोकान्धमनसा तेन विमुच्य क्षत्रधर्मकाकर्ष्यं द्विजातिधर्मसुलभो दैन्यपरिग्रहः कृतः। अथवा इत्युक्ते अत्र शस्त्रग्रहणकाले किमर्थं विशस्त्रः आसीत्, पराक्रमशाली कोऽपि शस्त्रग्रहणकाले शस्त्रं न त्यजति इति उक्त्वा, अथवा नो चेत् सूक्तमिदम् अभियुक्तैः, अभियुक्तः नाम आप्तजनः पण्डितैः इदं सूक्तम् उच्यते। किं तत् सूक्तं? प्रकृतिः द्युस्त्यजा इति, प्रकृतिः दुस्त्यजा इति। एतत् ERC ससन्दर्भं व्याख्यात इति प्रश्ने भवितुम् अर्हति। प्रकृतिः दुस्त्यजा इति कारणम् एषः ब्राह्मणः, ब्राह्मणस्य स्वभावः अस्ति शस्त्रग्रहणं न करणीयं, युद्धं न करणीयम् इति। सा ब्राह्मणस्य प्रकृतिः दुस्त्यजा नाम त्यक्तुं न योग्या इति। दुस्त्यजा नाम त्यक्तुं न योग्या, प्रकृतिः त्यक्तुं न योग्या इति। यतः शोकान्धमनसा तेन शोकेन
अन्धं मनः जातः सः शोकेन पीडितं मनः शोकान्धमनसा तेन गुरुणा आचार्येण क्षत्रधर्मकार्कश्यं विमुच्य त्यक्त्वा किं त्यक्त्वा क्षत्रधर्म क्षत्रियाणां धर्मः क्षत्रधर्मः तद् कीदृशं धर्म अस्ति कार्कश्यं क्षत्रधर्मस्य कार्कश्यं कार्कश्य नाम रफ्नेस् अथवा टफ्नेस् कठोरत्वम् इति क्षत्राणां क्षत्रियाणां उचितम् अस्ति उचितः कठोरः औचित्यं कठोरत्वं कर्कशस्य भावः कार्कश्यम् अथवा कर्कशता इति एवं तादृशं क्षत्रधर्म कार्कश्यं यद् अस्ति तद् त्यक्त्वा परुषम् इत्यपि वक्तुं शक्यते परुषम् अथवा कठोरतां त्यक्त्वा द्विजातिधर्मसुलभः दैन्यपरिग्रहः कृतः द्विजाति नाम ब्राह्मणः ब्राह्मणस्य धर्मः यत् बहु सुलभः धर्मः अवलब्धुं बहु सरलः अस्ति सुलभः धर्मः किमस्ति तत् दैन्यपरिग्रहः ब्राह्मणैः ब्राह्मणानां सुलभः धर्मः अस्ति दैन्यम् इति दैन्य नाम कारुण्यं कारुण्यस्य परिग्रहेण करुणा इति स्वभावस्य परिग्रहः कृतः द्रोणाचार्येण दैन्यपरिग्रहः एवं क्षत्रियधर्मं त्यक्त्वा सः ब्राह्मणस्य धर्मम् अवलम्बितवान् आचार्यः इति अर्थः कर्णः राजन् कौरेश्वर न खलु इदम् एवं न खलु इदम् एवं न इति कर्णः आक्षेपं करोति नाम सः ब्राह्मणस्य उचितं स्वभावं दैन्यं न अवलम्बितवान् किमर्थम् इत्युक्ते कथं तर्हि इति दुर्योधनः पृच्छति एवं किल द्रोणस्य अभिप्रायः आसीत् यथा अश्वत्थामा मया पृथिवीराज्ये अभिषेक्तव्यः इति तस्य अभावात् वृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणम् इति तथा कृतवान् द्रोणस्य अभिप्रायः एवम् आसीत् कथमासीत् किम् आसीत् द्रोणस्य अभिप्रायः इत्युक्ते अश्वत्थामा पृथिवीराज्ये अभिषेक्तव्यः इति मया अश्वत्थामा अहम् अश्वत्थामानं पृथिवीराज्ये अभिषेचयामि इति तस्य अभिप्रायः आसीत् नाम अश्वत्थामा पृथिव्याः राजा भवेत् इति द्रोणाचार्यस्य अभिप्रायः आसीत् तस्य अभावात् तस्य इति अत्र अश्वत्थाम्नः अभावात् नाम अश्वत्थाम्नः मरणात् इदानीम् अश्वत्थामा मृतः अस्ति अतः तस्य अभावात् अविद्यमानत्वात् अश्वत्थाम्नः मरणत्वात् वृद्धस्य मे ब्राह्मणस्य मम ब्राह्मणस्य मम वृद्धः अपि अस्मि अहं मम शस्त्रग्रहणं वृथा मम शस्त्रग्रहणेन किमपि प्रयोजनं नास्ति मम पुत्रम् अभिषेचयितुम् अहं न शक्नोमि पृथिवीराज्ये इति कारणात् ग्रहणं वृथा इति तथा कृतवान् सः शस्त्रं त्यक्तवान् सः ब्राह्मणस्य स्वभावं न परिगृहीतवान् सः एवं स्वपुत्रं पृथिवीराज्ये अभिषेचयितुम् असमर्थः कारणं पुत्रः मृतः इति कृत्वा तेन कारणेनैव सः शस्त्रं त्यक्तवान् इति कर्णस्य अभिप्रायं सूचयति अत्र कर्णदुर्योधनयोः संवादः बहु मुख्यः इति आदौ एव उक्तमासीत् कारणम् आरम्भे दुर्योधनः चिन्तयति सः क्षत्रियधर्मं त्यक्त्वा ब्राह्मणधर्मं नाम दैन्यं परिगृहीतवान् इति इदानीं किन्तु कर्णः तद् अन्यथा वदति तथा न इति स्वाभिप्रायं वदति तद् अङ्गीकरोति दुर्योधनः अग्रे शशिरकम्भम् एवमिदं एवं वा इति कर्णः दुर्योधनः कर्णः यद् वदति तद् साक्षात् अङ्गीकरोति कर्णः एतदर्थं च कौरवपाण्डवपक्षपातप्रवृत्तमहासङ्ग्रामस्य राजकस्य परस्परक्षयम् अपेक्षमानेन तेन प्रधानपुरुषवध उपेक्षा कृता कर्णः एतदर्थं राजकस्य परस्परक्षयम् अपेक्षमानेन तेन प्रधानपुरुषवधः वध उपेक्षा कृता। अत्र प्रधानपुरुषवधे उपेक्षा कृता इति। राजकस्य तत्र कुरुक्षेत्रयुद्धे बहवः राजानः न केवलं पाण्डवाः न केवलं दुर्योधनादयः सहोदराः बहवः बन्धुजनाः अन्ये बहवः राजानः युद्धं कुर्वन्ति स्म। केचन राजानः पाण्डवपक्षम् अवलम्ब्य युद्धं कुर्वन्ति, केचन राजानः दुर्योधनपक्षम् अवलम्ब्य युद्धं कुर्वन्ति स्म। तादृशानां राज्ञां राजकस्य इति अन्यस्य राजकस्य परस्परक्षयम् अपेक्षमानः द्रोणाचार्यः आसीत्। कारणं किम् इत्युक्ते, इदानीं प्रथममेव प्रधानपुरुषः नाम युधिष्ठिरादयः प्रधानाः पुरुषाः भवन्ति युद्धे। प्रथममेव प्रधानपुरुषाणां मरणं सम्भवति चेत् युधिष्ठिरादीनां प्रधानप्रमुखानां वीराणां मरणं सम्भवति चेत् अनन्तरं दुर्योधनः राजा भविष्यति, राज्यं पालयति। अश्वत्थाम्नः कृते किमपि न लभ्येत। अथवा प्रथमम् अन्येषां राज्ञां मरणं सम्भवति चेत् पाण्डवपक्षे ये युद्धं करोति, दुर्योधनपक्षे अपि ये युद्धं कुर्वन्ति, अन्यराजानः ये सन्ति, तेषां वधः प्रथमं सम्भवति चेत् तेषां मरणं प्रथमं सम्भवति चेत् अनन्तरं प्रधानपुरुषाणां वधेन अश्वत्थामा एकः एव तिष्ठति इति तस्य अभिप्रायः इति कर्णस्य अभिप्रायः इति द्रोणः एवं चिन्तितवान् स्यात्। अन्येषां राज्ञां मरणं प्रथमं भवतु, तदनन्तरं प्रधानपुरुषाणां वधः भवतु, तस्मात् सर्वेषां राज्ञां मरणात् परं मम पुत्रः पृथिव्याः राजा भविष्यति इति तस्य द्रोणाचार्यस्य चिन्तनम् इति कर्णः वदति। तस्मात् कारणात् एव सः प्रथमं राजकस्य परस्परक्षयम् अपेक्षमानः आसीत्। ये अन्ये राजानः सन्ति तेषां क्षयं नाशमेव सः प्रथमम् अपेक्षते स्म। तादृशेन द्रोणाचार्येण प्रधानपुरुषवधे उपेक्षा कृता, युधिष्ठिराधीनां प्रधानपुरुषाणां बहूनां वधे सः उपेक्षां कृतवान्। नो चेत् प्रथममेव तस्य तावत् वीर्यम् अस्ति, सः तावन्ति शस्त्राणि सन्ति तस्य समीपे, यैः सः सरलतया युधिष्ठिरादीन् मारयितुं शक्नोति स्म, किन्तु सः न कृतवान्। अतः प्रथमम् अन्ये राजानः मरणं प्राप्नुवन्तु इति तस्य आशयः द्रोणाचार्यस्य। कीदृशस्य राजकस्य इत्युक्ते कौरवपाण्डवपक्षपातप्रवृत्तमहासङ्ग्रामस्य राजकस्य इति। कौरवाणां पाण्डवानां पक्षपातः नाम फेवरेटिसम्, एतेषां पक्षपाते तेषां पक्षपाते ये महाभारतयुद्धम् आरब्धं प्रवृत्तं नाम आरब्धम् आसीत्, तत्र विद्यमानस्य राजकस्य परस्परक्षयम् अपेक्षमानः आसीत् द्रोणाचार्यः। अतः एव सः प्रधानपुरुषस्य वधे उपेक्षा कृतवान् स्यात् इति कर्णस्य अभिप्रायः। दुर्योधनः तदपि अङ्गीकरोति स्म, उपपन्नम् इदं, भवता यद् उच्यते तद् सत्यं स्यात् इति दुर्योधनः अङ्गीकरोति। पुनः कर्णः अन्यच्च राजन् द्रुपदेन अपि अस्य बाल्यात् भृत्य अभिप्रायवेदिना न स्वराष्ट्रे वासः दत्तः। अभिप्रायवेदिना द्रुपदेन अस्य द्रोणाचार्यस्य अभिप्रायवेदी अस्ति द्रुपदः। द्रोणाचार्यस्य अभिप्रायं वेत्ति, सः वेत्ति इति अभिप्रायवेदी अस्ति नाम जानाति। कारणं द्वावपि द्रुपदः द्रोणाचार्यौ द्वावपि बाल्यकालादारभ्य स्नेहितौ आस्ताम्, समानगुरुकुले पठितवन्तौ अपि। अतः बाल्यकालादारभ्य एव बाल्यात् प्रभृति बाल्यकालादारभ्य द्रुपदः द्रोणाचार्यस्य अभिप्रायं जानाति स्म। सः तस्य अभिप्रायं नाम अश्वत्थामानम् अहं राजानं अश्वत्थामा राजा भवेत् इति तस्य अभिप्रायं जानाति स्म. अतः एव सः स्वराष्ट्रे वासः न दत्तः. अतः एव द्रुपदेन स्वराष्ट्रे द्रोणाचार्यस्य कृते वासं न दत्तवान् दुर्योधनः. साधु अङ्गराज, साधु निपुणम् अभिहितं, सम्यक् उक्तम्. अभिहितं नाम उक्तम् इति. न चायं मम एकस्य अभिप्रायः. एषः अभिप्रायः न केवलं मम एव इति कर्णः पुनः दृढयति. न केवलं स्वस्य अभिप्रायः एषः, न तु अपि च बहूनाम् अभिप्रायः इति वदति कर्णः. अन्ये अभियुक्ताः, अभियुक्ताः नाम नीतिवेदिनः, नीतिमन्तः, ये नीतिं जानन्ति, ते अपि न च अयं ममैकस्य अभिप्रायः. अन्ये अभियुक्ताः अपि नैवेदम् अन्यथा मन्यते, न एव इदम् अन्यथा मन्यन्ते, एवम् इदम् अन्यथा न मन्यन्ते इति स्वीकरणीयम्. अन्ये अभियुक्ताः, अन्ये नीतिमन्तः जनाः एवम् अन्यथा इदं न मन्यन्ते, ते अपि समानं मन्यन्ते इति अर्थः. यथा मम अभिप्रायः अस्ति तथा एव सर्वेषां नीतिवथाम् अपि अभिप्रायः. दुर्योधनः एवमेतत् कः सन्देहः? दत्त्वा अभयं सो अतिरथः बध्यमानं किरीटिना सिन्धुराजम् उपेक्षेत, नैवं चेत् कथं मन्यता? कः सन्देहः इति दुर्योधनः इतोपि तद् दृढयति. कर्णस्य अभिप्रायम् अनेन श्लोकेन दृढयति दुर्योधनः. एवं न चेत् कथं मन्यता? भवता यद् उक्तं तत् सत्यमेव, तद् अन्यथा भवितुं न अर्हति. एतत् एवञ्च अर्जुनः गत्वा जयद्रथेन सह युद्धं कृत्वा तं मारितवान्. एषः द्रोणाचार्यः तस्य उपेक्षां कृतवान्. तस्य कारणम् इदानीं भवता यद् उच्यते तदेव स्यात्, अन्यथा भवितुं न अर्हति. अन्यथा सः जयद्रथस्य वध उपेक्षां न कृतवान् स्यात्. एवं नो चेत्, न चेत् एवं भवता यद् उक्तं तद् नास्ति चेत् कथम् अन्यथा कथं भवति, भवितुं नार्हति. यतः सः अतिरथः सः अतिरथः इति युद्धक्षेत्रे दीयमानः कश्चित् उपाधिः, टैटल् इति वदामः किल तद् अतिरथः, महारथः इति तत्र भिन्नभिन्न सोपानमस्ति. कश्चित् योधः कति जनैः सह समानसमये युद्धं कर्तुं शक्नोति इति तस्य सामर्थ्यम् अनुसृत्य एतत् टैटल् भवति, अतिरथः, महारथः इति. एकैकस्य अपि एकं लक्षणमस्ति. सः अतिरथः सः अभयं दत्त्वा, अभयं दत्त्वा कस्मै अभयं दत्तवान्? सिन्धुराजाय जयद्रथाय सः अहं भवन्तं रक्षामि इति अभयं दत्तवान् आसीत्. एवम् अभयं दत्त्वा किरीटिना अर्जुनेन बध्यमानं सिन्धुराजं, मरणं प्राप्यमानं सिन्धुराजं, मरणं कार्यमानं सिन्धुराजम् उपेक्षेत, उपेक्षां कृतवान् किल. एवं नास्ति चेत् कथम् अन्यथा, एवं न चेत् भवता यद् उच्यते तद् नास्ति चेत् अन्यथा भवितुं न अर्हति. अतिरतः सः अभयं दत्त्वा सिन्धुराजं रक्षामि, भवन्तं रक्षामि इति तस्य अभयं दत्त्वा अर्जुनेन वध्यमानं तं पश्यन्नेव आसीत्, उपेक्षां कृतवान् सः. सः साक्षात् गत्वा अर्जुनेन सह युद्धं कर्तुं शक्तवान्, सिन्धुराजं रक्षितुं शक्तवान् सः, किन्तु तथा न कृतवान् सः. तस्य कारणं भवता यत् इदानीम् उक्तं तदेव स्यात् इति दुर्योधनः कर्णस्य अभिप्रायम् अङ्गीकरोति, समर्थयति अपि अनेन श्लोकेन. व्याख्यां पठामः. एवम् इत्थं न चेत् यदि नास्ति अन्यथा एकप्रकारेण कथं केन प्रकारेण अतिरथः, महारथः सः द्रोणः अभयं दत्त्वा निर्भयं कृत्वा किरीटिना अर्जुनेन वध्यमानं हन्यमानं सिन्धुराजं जयद्रथं कथं किमर्थम् उपेक्षेत तिरस्कुर्यात्। इदानीं कृपाचार्यः आगच्छति विलोक्य, वत्स एष दुर्योधनः सूतपुत्रेण सह अस्यां न्यग्रोधच्छायायाम् उपविष्टः तिष्ठति, तदु उपसर्पावः तथा करोति, तथा कृत्वा। वत्स, इदानीं कृपाचार्यः अश्वत्थामानं वदति, वत्स एष दुर्योधनः सूतपुत्रेण सह कर्णेन सह अस्यां निग्रोधच्छायायां, निग्रोधः इति वृक्षविशेषः, निग्रोध इति वृक्षस्य छायायाम् उपविष्टः तिष्ठति। उपविष्टः तिष्ठति इति पदस्य साक्षात् टु स्टाण्ड् इति अर्थः न केवलम् अत्र तिष्ठति इत्यत्र अस्ति इत्यपि अर्थः अस्ति, अतः अत्र उपविष्टः अस्ति इति अर्थस्य अर्थः स्वीकरणीयः। निग्रोधच्छायायाम् उपविष्टः, इदानीं तप्रत्ययः यत्र अस्ति तस्मात् परं यत्किमपि क्रियापदमपि भवेत्, उपविष्ट अस्ति, आसीत्, भविष्यति एव किमपि, अतः उपविष्टः अस्ति इति, तद् उपसर्पावः समीपं गच्छावः इति, तथा कृत्वा उभौ विजयतां विजयतां कौरवेश्वर दुर्योधनस्य समीपम् आगत्य अश्वत्थामा कृपाचार्यौ मिलित्वा वदति विजयतां विजयताम् इति। दुर्योधनः दृष्ट्वा, अये कथं कृपो अश्वत्थामा च आसनाद् अवतीर्य कृपं प्रति गुरो अभिवादये। गुरोः अभिवादनं करोति दुर्योधनः आसनात् अवतीर्य, आसनात् उत्थाय गुरो अभिवादये इति। अश्वत्थामानम् उद्दिश्य इमं श्लोकं वदति दुर्योधनः, आचार्यपुत्र एहि अस्मदर्थ हततात परिष्वजस्व क्लान्तैः इदं मम निरन्तरम् अङ्गम् अङ्गैः स्पर्शः तव एष भुजयोः सदृशः पितुः ते शोके अपि यो महति निर्वृत्तिम् आदधाति। अस्मदर्थ हततात इति अश्वत्थामानं सम्बोधयति दुर्योधनः। अस्मदर्थं नाम अस्माकं हेतोः हतः तातः यस्य अस्ति सः अस्मदर्थ हततातः भवति, तस्य सम्बोधनम् एतत्। एवम् अस्माकं कृते एव मारितः तव तातः इति अश्वत्थामानं दृष्ट्वा समनन्तरं वदति राजा, तस्य एकम् उत्तमं लक्षणम् अस्ति राज्ञः। एवं दर्शनसमनन्तरं मम कृते एव तव तातः मारितः, तव पिता मारितः इति। क्लान्तैः अङ्गैः इदम् अङ्गैः इदम् मम अङ्गं निरन्तरं परिष्वजस्व, ततः पूर्वं एहि इति वदति, एहि नाम आगच्छ, आगच्छतु अत्र आगच्छ, क्लान्तैः अङ्गैः दुःखितैः तव शरीर अङ्गैः इदं मम अङ्गं मम शरीरं परिष्वजस्व आलिङ्गनं कुरु, निरन्तरम् आलिङ्गनं कुरु। भवतः शरीर अङ्गानि पितुः मरणदुःखात् क्लान्तानि क्लिन्नानि सन्ति, तादृशैः अङ्गैः मम इदम् अङ्गं मम शरीरं भवान् निरन्तरम् आलिङ्गनं करोतु, मम अङ्गस्य मम आलिङ्गतु इति। कारणं तव एषः स्पर्शः, तव एषः स्पर्शः, आलिङ्गनेन यः स्पर्शः जायते सः स्पर्शः भुजयोः, तव हस्तयोः एषः स्पर्शः, ते पितुः सदृशः, तव पितुः आलिङ्गनसदृशः अस्ति। यदा तव पिता, अत्र परस्परम् एक आलिङ्गन, परस्परम् आश्वासनं भवति, दुःखस्य आश्वासनं भवति परस्परम् इति अत्र दुर्योधनस्य अभिप्रायः अस्ति। एवं यथा तव पिता हे वत्स इति उक्त्वा माम् आलिङ्गति स्म, तथा अस्ति इदानीं तव स्पर्शः अपि। यः महति शोके अपि निर्वृत्तिम् आदधाति, यः स्पर्शः, इदानीं तव पितुः भुजयोः सदृशः यः स्पर्शः क्रियते सः स्पर्शः महति शोके अपि, इदानीं तत्र इदानीं महान् शोकः अस्ति, एतस्मिन् काले अपि निर्वृत्तिम् आदधाति. निर्वृत्तिः इत्युक्ते सन्तोषः इति अर्थः, किन्तु अत्र सन्तोषः न, काञ्चित् शान्तिं जनयति, किञ्चित् आश्वासः भवति इति अर्थः स्वीकरणीयः. एवं यः तव पितुः भुजयोः सदृशः स्पर्शः, सः स्पर्शः तव एषः सः स्पर्शः महति शोके अपि निर्वृत्तिम् आदधाति, महति दुःखसमये अपि किञ्चित् तृप्तिं जनयति, किञ्चित् आश्वासनं जनयति. तत् व्याख्यां पठामः. हे अस्मदर्थ हत तात, अस्मदर्थम् अस्माकं हेतोः हतः मारितः तातः जनकः यस्य तत् सम्बुद्धौ ये हि आगच्छ. क्लान्तैः दुःखितैः अङ्गैः शरीर अवयवैः इदम् एतत् मम मे अङ्गं शरीरं निरन्तरम् अनवरतं परिष्वजस्व. आलिङ्ग तव ते अश्वत्थाम्नः भुजयोः बाह्वोः एषः अयं स्पर्शः आलिङ्गनं ते तव पितुः जनकस्य द्रोणस्य सदृशः समः यः स्पर्शः, यः स्पर्शः महति शोके घोरदुःखे अपि निर्वृत्तिं शान्तिम् आदधाति करोति. अत्र उपमा अलङ्कारः पितुः भुजयोः सदृशः तव स्पर्शः, सदृशः नाम इव इति, अतः अत्र उपमा अलङ्कारः. आलिङ्ग्य पार्श्वम् उपवेशयति, दुर्योधनः अश्वत्थामानम् आलिङ्ग्य पार्श्वे उपवेशयति. अश्वत्थामा बाष्पम् उत्सृजति, अश्वत्थामा रोदिति स्म. कर्णः द्रौणायने अलम् अत्यर्थम् आत्मानं शोकानले प्रक्षेप्तुम्. द्रौणायनिः द्रोणस्य अपत्यं पुमान् द्रौणायनिः तस्य सम्बोधनं द्रौणायने. अत्यर्थम् आत्मानं शोक अनले प्रक्षेप्तुम् अलम्, स्वयं शोकम् इति अग्नौ आत्मानं प्रक्षेप्तुम् अलम्, कारणं पुनः पुनः शोकं न अनुभवतु इति अर्थः. अतः आत्मानं शोक अनले प्रक्षेप्तुम् अलम्, दुःखेन अलं, शोकेन अलम्. दुर्योधनः आचार्यपुत्र को विशेषः आवयोः अस्मिन् व्यसनमहार्णवे. पश्य हे आचार्यपुत्र, हे अश्वत्थामन्, को विशेषः, कः भेदः इति अर्थः. कः भेदः आवयोः नाम मम त्वम् आवयोः मध्ये को भेदः अस्ति अस्मिन् व्यसनमहार्णवे, दुःखसमये आवयोः दुःखं समानमस्ति. भवतः तव पिता प्रणयकारणात् ममापि पिता अस्ति, भवन्तमपि शस्त्रं पाठितवान् सः, मामपि शस्त्रम् आयुधविद्यां पाठितवान्, अतः भवतः अपि गुरुः अस्ति, ममापि गुरुः अस्ति. एवम् आवयोः गुरुः अपि अस्ति, आवयोः पिता अपि अस्ति सः, अतः आवयोः दुःखं तु समानमस्ति, को भेदः अत्र आवयोः दुःखे इति. पश्य तातस्तव प्रणयवान् सः पितुः सखा मे, शस्त्रे यथा तव गुरुः स तथा ममापि, किं तस्य देहनिधने कथयामि दुःखं, जानीहि तद्गुरुषु च मनसा त्वमेव. सः तव तातः तव पिता, भवतः पिता मम पितुः प्रणयवान् सखा, मम पितुः धृतराष्ट्रस्य सखा अस्ति, तव पितुः सखा अस्ति मम पिता, किन्तु सामान्यः सखा न, प्रणयवान् सखा इति तस्य विशेषणं, नाम प्रियतमः सखा आसीत्. कारणं प्रियतमः सखा अस्ति चेतेव, स्नेहम् अस्ति चेतेव तस्य पुत्रमपि आत्मनः पुत्रवत् द्रष्टुं प्रभवति. अतः तव पिता मम पितुः प्रणयवान् सखा, प्रियतमः सखा आसीत् इति कारणेनैव मम उपरि सः वात्सल्यं प्रदर्शितवान् आसीत्, स्वपुत्रः इव वात्सल्यं प्रदर्शितवान् आसीत्. अत एव प्रणयवान् सखा इति नाम, सामान्यसखा चेत् एतावत् दुःखं न स्यात्, सः प्रणयवान् सखा आसीत्. सः द्रोणः यथा शस्त्रे तव गुरुः, यथा
शस्त्रविद्यायाम् आयुधविद्यायां तव गुरुः अस्ति, तथा ममापि गुरुः अस्ति सः, मामपि पाठितवान् शस्त्रविद्यां, अतः मम अपि गुरुः. अतः प्रथमं तव पिता मम पितुः प्रियतमः सखा इति कारणात् सः मम अपि पिता अस्ति. नाम सः पितृवत् मम उपरि वात्सल्यं प्रदर्शितवान् आसीत्, अतः मम अपि पिता, प्रथमः विषयः. द्वितीयः, यथा तव गुरुः अस्ति शस्त्रविद्यायां तथा सः मम अपि गुरुः अस्ति, एवं पिता अपि अस्ति आवयोः, आवयोः गुरुः अपि अस्ति इति कारणं. किरार्तार्जुनीये एवम् उच्यते, सखीनिव प्रीतियुजो अनुजीविनः. दुर्योधनः स्व अनुजीविनः नाम स्वभृत्यान् सर्वान् सखीभावेन पश्यति इति. सखीनिव प्रीतियुजः अनुजीविनः, अनुजीविषु सः सखीभावं प्रदर्शयति स्म इति. एवं कृताधिपत्यामिव साधु बन्धुतां, बन्धुजनेषु बन्धुजनान् राजानः इव पश्यति स्म दुर्योधनः इति. नाम सः भृत्यान् सखीवत् पश्यति, सखीजनान् बन्धुवत् पश्यति, बन्धुजनान् आत्मवत् पश्यति, राजा इव पश्यति सः बन्धुजनान् सर्वान् अपि आत्मना सदृशान् पश्यति इति. तथा एव अत्र अश्वत्थामानमपि दुर्योधनः समानदुःखितौ आवाम् इति वदति, समानभावेन पश्यति. तस्य देहनिधने, तस्य मरणे किं दुःखं कथयामि, कथं वा मम दुःखम् अहं वदामि, वाचा वक्तुं न शक्नोमि. फीलिङ्ग्स् केनाट् बि एक्स्प्रेस्ड् इति उच्यते किल, अतः मम दुःखम् अहं वर्णयितुमेव न शक्नोमि. किं दुःखं कथयामि, गुरुशुचा मनसा तत् त्वमेव जानीहि. गुरुशुचा मनसा नाम गुरु नाम महत् शोकं, महान् शोकः यस्य अस्ति, शुच् इत्युक्ते शोकम् इत्यर्थः. अतः महता शोकेन पीडितं मनः अस्ति, तेन मनसा भवानेव जानाति मम दुःखम् अपि. मम पितृस्थाने विद्यमानस्य, मम गुरुस्थाने विद्यमानस्य तस्य मरणस्य दुःखं यत् अनुभूयते तद् अहं वर्णयितुमेव न शक्नोमि. तद् गुरुशुचा मनसा, शोकेन दग्धेन मनसा तत् त्वमेव जानीहि, भवानेव जानाति मम दुःखं किम् इति. अर्थं मयि विद्यमानं शोकं भवता एव अवगन्तुं शक्यते, अन्यैः न शक्यते. कारणं मयि विद्यमानः अयं शोकः तु समानः शोकः यथा त्वयि अस्ति, यथा तव शोकः अस्ति समानशोकः अस्ति मम अपि. अतः भवान् एव अवगन्तुं शक्नोति मम शोकं. गुरुशुचा मनसा एव भवतः मनसि अपि महत् दुःखम् अस्ति, मम मनसि अपि महत् दुःखम् अस्ति. अतः समानदुःखत्वात् भवता एव भवान् एव माम् अवगन्तुं शक्नोति, भवान् एव मां जानीहि, मम दुःखं जानीहि इति व्याख्यां पठामः. सः असौ तव ते अश्वत्थाम्नः, तातः जनकः मे मम दुर्योधनस्य, पितुः जनकस्य, प्रणयवान् प्रियः सखा मित्रम् आसीत् इति अध्याहारः. सः आचार्यः यथा यादृशः शस्त्रे आयुधशिक्षणे तव गुरुः ते आचार्यः, तथा तादृशः मम अपि आचार्यः आसीत्. तस्य गुरोः देहनिधने मरणे किं दुःखं कथयामि, किं शोकं वर्णयामि. गुरुशुचा महता दुःखिता मनसा हृदयेन तत् दुःखं त्वमेव आत्मना एव जानीहि अवेहि. अत्र अन्वये मे पितुः प्रणयवान् सखा इति अस्ति. तत् प्रणयवान् सखा इत्युक्ते पितुः प्रियतमः स्नेहः, सो वाट् इति प्रश्नः उदेति. अतः सः प्रणयवान् सः मे पितुः सखा इति अन्वयः क्रियते चेत् प्रीतियुक्तः सः द्रोणाचार्यः मम पितुः सखा आसीत् इति कथनम् इतोपि सम्यक् भवति.